अथ सूर्य अष्टकम् आदिदेवानमस्तुभ्यम् प्रसीद मम भास्कर दिवाकरानमस्तुभ्यम् प्रभाकरानमस्तुते सप्तस्वरदामरुधम् प्रचंदम् कश्यपद्मजम् श्वेतपद्माधरम् दीवम् तम् सूर्य प्रणामम्यहम् लोहितम् रथमरुधम् सर्वलोकपितामहम् महापापहरम् देवम् तम् सूर्यम् प्रणामम्यहम् त्रैगुण्यम् च महाशूरम् ब्रह्म विष्णुमहेश्वरम् महापापहरम् देवम् तम् सूर्यम् प्रणामम्यहम् ब्रह्मेथम् तेजपूजम् च वायुराकशमेव च प्रभुस्थवम् सर्वलोकानाम् तम् सूर्यम् प्रणामम्यहम् बन्धुकपुष्पशाङ्काशम् हलाकुन्दलाभूषितम् इकाचक्राधरम् देवम् तम् सूर्यम् प्रणामम्यहम् तम् सूर्यम् जगत्कर्तरम् महातेजम् प्रदीपनम् महापापहरम् देवम् तम् सूर्यम् प्रणामम्यहम् तम् सूर्यम् जगाथम् नाथम् घनविघ्नमोक्षदम् महापापहरम् देवम् तम् सूर्यम् प्रणाम्यहम् तम् सूर्यम् प्रणाम्यहम् तम् सूर्यम् प्रणाम्यहम्।